प्रातः स्मरामि हृदि सं स्फुरदात्मतत्त्वं सचित् सुखं परमहंसगतिं तुरीयम् यत् स्वप्न जाग्रत सुषुप्तिमवैति नित्यम् तद्ब्रह्म निष्कलमहं न च भूतसङ्घः प्रातर्भजामि मनसाम् वचसामगम्यम् वाचो विभान्ति निखिला यदनुग्रहीण यन्नेति नेति वचनैर्निगमावोचंस् तं दीवदीवमजमा च्युतमाहुरग्र्यम् प्रातर्नमामि तमसः परमर्कवरणम् पूर्णं सनातनपदं पुरुषोत्तमाख्यम् यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वाम्भुजङ्गमयुव प्रतिभासितं वै श्लोकत्रयमिदं पुण्यं लोकत्रय विभूषणं प्रातः काले स्मरेद्यस्तु स गच्छेत् परमं पदम्।